Sai Ram, dear listeners, and welcome back to the studios of Radio Sai Prashantiralyam, bringing you live broadcast every Thursday in the Asia stream of Radio Sai. The proceedings in the Mandir, the Sai Gurunath Hall, the divine abode, has ended just now, and the devotees are silently lined up to have a close darshan of our Lord. We shall now start the evening proceedings of this week's Thursday Live with the Radio Sai Vedan Tutor. This is Team Radio Sai's Ganesh inviting you all to this week's Vedan Tutor. In today's class, we will be continuing with the learning of the Siksha Valli. Over to Praveena sir.
Om Sai Ram. So we'll start with the Ganesha Prarthana Mantra, chanting together.
Om Gananaan Tva Ganapati Gum Hava Mahe Kavim Kavinam Upamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anas Shrinvan Noti Vissedhasadhanam Prano Devi Sarasvati Vaje Birvajini Vati Dhinama Vitrivato Ganeshaya Namaha Sarasvatyai Namaha Shri Gurubhyo Namaha Harihi Om.
Sai Ram, in the previous session we have started learning the Siksha Valli, and now we'll proceed with the later part of the Siksha Valli, wherein in the beginning the importance and significance of the three words Bhuhu, Bhuvaha and Suvaha are explained very beautifully. As all of us aware of, when we chant even this Gayatri, we chant or we start with the chanting of this Bhuhu, Bhuvaha, Suvaha. Bhurbhu Vasuvaha Tatsa Viturvarenyam. The actual Gayatri starts from the Tatsa Viturvarenyam. Then Bhargo Devasya Dhimahi Dhiyo Yonaha Prachodayat. Thus you can see three padas are there, each pada containing eight syllables. That's how the Gayatri Mantra, starting from Tatsa Viturvarenyam, forms 24 syllable mantra, great mantra, which is written in the form, in the chandas or the meter called Gayatri. That's why the name is given as Gayatri Mantra only. And you can find it precedes with the three very important and very sacred words Bhuhu, Bhuvaha and Suvaha. And the paragraphs which we are going to learn, he has given, he has described the significance and various attributes of these three important words Bhuhu, Bhuvaha and Suvaha. These three words are collectively called Viharatis. But when Omkara or the Pranava joins it, it becomes a mantra called Mahavyarati. That's why Om Bhuhu Bhuvaha Suvaha. That is Om Bhurbhu Vasvaha. Is said to be Vyarati mantra, Mahavyarati mantra. And that's why you can see whatever explanation he has given here in the following paragraphs, attributing to the various aspects, divine aspects, these three important words. So we'll take up from this particular paragraph. Please repeat after me twice. And before that, we'll chant the Shanti Mantra, Shanno Mitra Shamvarana, together.
Om Shanno Mitra Shamvarunaha Shanno Bhavatvaryama Shanna Indro Brahaspatihe Shanno Vishnururukramah Namo Brahmane Namaste Vayo Tvameva Pratyaksham Brahmasi Tvameva Pratyaksham Brahma Vadishyami Ritam Vadishyami Satyam Vadishyami Tanmamavatu Tadvaktaramavatu Avatu Mam Avatu Vaktaram. Om Shanti 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 भूर्भुवस्सुवरितिवा
एतास्तिस्रो व्याहृतयः
भूर्भुवस्सुवरितिवा एतास्तिस्रो व्याहृतयः तासामुहस्मैतान् चतुर्थीम्
चैंट दिस सेंटेंस अगेन, प्लीज रिपीट आफ्टर मी वंस. तासामुहस्मैतान् चतुर्थीम्
महाचमस्यः प्रवेदयते
महेते
तद्ब्रह्मा
स आत्मा
अङ्गान्यन्या देवताः
भूरितिवा अयन् लोकः
भुव इत्यन्तरिक्षम्
सुभरित्यसौ लोकः
महेत्यादित्यः
आदित्येन वाव सर्वे लोका महीयन्ते
भूरितिवा अग्निः
भुव इति वायुः
सुभरित्यादित्यः
मह इति चन्द्रमाः
चन्द्रमसावाव सर्वाणि
ज्योतिगुंषि महीयन्ते चन्द्रमसावाव सर्वाणि ज्योतिगुंषि महीयन्ते
चन्द्रमसावाव सर्वाणि ज्योतिगुंषि महीयन्ते
Can you please repeat this sentence?
चन्द्रमसावावानि सर्वाणि ज्योतिगुंषि महीयन्ते
Okay, please listen. चन्द्रमसावाव सर्वाणि
ज्योतिगुंषि महीयन्ते
Yes, now we'll join both the sentences and then chant together.
चन्द्रमसावाव सर्वाणि ज्योतिगुंषि महीयन्ते
भूरितिवा रुचः
भूरितिव रुचः
भुव इति सामानि
भुव इति सामानि भुव इति सामानि
सुवरिति यजोगुंषि
सुवरिति यजोगुंषि सुवरिति यजोगुंषि
मह इति ब्रह्म
मह इति ब्रह्म मह इति ब्रह्म
ब्रह्मणा वाव सर्वे वेदा महीयन्ते
ब्रह्मणा वाव सर्वे वेदा महीयन्ते
ब्रह्मणा
वाव सर्वे वेदा महीयन्ते
I chant this sentence once. Please repeat after me. ब्रह्मणा वाव सर्वे वेदा महीयन्ते
ब्रह्मणा वाव सर्वे वेदा महीयन्ते
भूरिति वै प्राणः
भूरिति वै प्राणः
भुव इत्यपानः
भुव इत्यपानः भुव इत्यपानः
सुवरिति व्यानः
सुवरिति व्यानः सुवरिति व्यानः
मह इत्यन्नम्
मह इत्यन्नम् मह इत्यन्नम्
अन्नेन वाव सर्वे प्राणा महीयन्ते
अन्नेन वाव सर्वे प्राणा महीयन्ते अन्नेन वाव सर्वे प्राणा महीयन्ते
ताव एताश्चतस्रश्चतुर्धा
ताव एताश्चतस्रश्चतुर्धा ताव एताश्चतस्रश्चतुर्धा
Please repeat after me. ताव एताश्चतस्रश्चतुर्धा
ताव एताश्चतस्रश्चतुर्धा
चतस्रश्चतस्रो व्याहृतयः
चतस्रश्चतस्रो व्याहृतयः चतस्रश्चतस्रो व्याहृतयः
तायो वेद
तायो वेद तायो वेद
स वेद ब्रह्म
स वेद ब्रह्म स वेद ब्रह्म
सर्वे एस्मै देवा बलिमावहन्ते
सर्वे एस्मै देवा बलिमावहन्ते सर्वे एस्मै देवा बलिमावहन्ते
From the previous paragraph, we'll chant together till here. That is starting from Om Bhurbhuvasuvaritiva, we'll chant together.
Bhurbhuvasuvaritiva etas trisro vyahritayah tasamuhasmaitan chaturthim mahachamasya pravedayate maha ite तद्ब्रह्मा स आत्मा अंगान्यन्या देवताः भूरिति वा अयं लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमा चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा रुचः भुव इति सामानि
Stop. भुव इति सामानि
भुव इति सामानि
सुवरिति
यजोगुंषि मह इति ब्रह्म
स्टॉप मह इति ब्रह्म
मह इति ब्रह्म
ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः
भुव इत्यपानः सुभरितिव्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणामहीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेद स वेद ब्रह्म सर्वेऽस्मै देवा बलिमावहन्ते.
Yes, we'll proceed. You can repeat after me twice. Saya esho antarhrdaya akashah.
Saya esho antarhrdaya akashah. Saya esho antarhrdaya akashah.
Tasminnayam purusho manomayah.
तस्मिन्नयम् पुरुषो मनोमयः तस्मिन्नयम् पुरुषो मनोमयः.
I'll chant this sentence again. तस्मिन्नयम् पुरुषो मनोमयः
तस्मिन्नयम् पुरुषो मनोमयः.
Again. तस्मिन्नयम् पुरुषो मनोमयः
तस्मिन्नयम् पुरुषो मनोमयः
अमृतो हिरण्मयः
अमृतो हिरण्मयः अमृतो हिरण्मयः
अन्तरेण तालुके
अन्तरेण तालुके अन्तरेण तालुके
य एष स्तन इवावलम्बते
य एष स्तन इवावलम्बते य एष स्तन इवावलम्बते.
Listen carefully. य एष स्तन इवावलम्बते
य एष स्तन इवावलम्बते.
Again.
य एष स्तन इवावलम्बते
सेन्द्रयोनिः
सेन्द्रयोनिः सेन्द्रयोनिः
यत्रासौ केशान्तो विवर्तते
यत्रासौ केशान्तो विवर्तते यत्रासौ केशान्तो विवर्तते
व्यपोह्य शीर्षकपाले
व्यपोह्य शीर्षकपाले व्यपोह्य शीर्षकपाले
भूरित्यग्नौ प्रतिष्ठते
भूरित्यग्नौ प्रतिष्ठते भूरित्यग्नौ प्रतिष्ठते
भुव इति वायौ
भुव इति वायौ भुव इति वायौ
सुभरित्यादित्ये
सुभरित्यादित्ये सुभरित्यादित्ये
मह इति ब्रह्मणे
मह इति ब्रह्मणे मह इति ब्रह्मणे
आप्नोति स्वराज्यम्
आप्नोति स्वराज्यम् आप्नोति स्वराज्यम्
आप्नोति मनसस्पतिम्
आप्नोति मनसस्पतिम् आप्नोति मनसस्पतिम्
Listen again, see. आप्नोति मनसस्पतिम्
आप्नोति मनसस्पतिम्
वाक्पतिश्चक्षुष्पतिः
वाक्पतिश्चक्षुष्पतिः वाक्पतिश्चक्षुष्पतिः
श्रोत्रपतिर्विज्ञानपतिः
श्रोत्रपतिर्विज्ञानपतिः श्रोत्रपतिर्विज्ञानपतिः
एतत्ततो भवति
एतत्ततो भवति एतत्ततो भवति
आकाशशरीरम् ब्रह्म
आकाशशरीरम् ब्रह्म आकाशशरीरम् ब्रह्म
सत्यात्मप्राणारामम् मन आनन्दम्
सत्यात्मप्राणारामम् मन आनन्दम् सत्यात्मप्राणारामम् मन आनन्दम्
शान्तिसमृद्धमृतम्
शान्तिसमृद्धमृतम्
प्लीज लिसन वन्स अगेन शान्तिसमृद्धमृतम्
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 यु नीड नॉट स्प्रेड देयर शांति समृद्धम अमृतम
शांति समृद्धम अमृतम
इति प्राचीन योग्योपास्व
इति प्राचीन योग्योपास्व
प्राहिय डजंट कैरी द डाउनलोड इंटोनेशन इति प्राचीन योग्योपास्व
इति प्राचीन योग्योपास्व
अगेन
इति प्राचीन योग्योपास्व
आई थिंक वी नाउ विल चैंट दिस पैराग्राफ टुगेदर आई थिंक दैट इज स्टार्टिंग फ्रॉम सय एषोऽन्तर्हृदय आकाश विल चैंट टुगेदर
सय एषोऽन्तर्हृदय आकाशः तस्मिन् नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ के शान्तो विवर्तते व्यपोह्यशीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणे आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्म
स सत्यात्मप्राणारामम् मन आनन्दम् स्टोप् हियर् सत्यात्मप्राणारामम् मन आनन्दम्
सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीन योग्योपास्व
ऐ थिंक वी नीड टू चैंट वन्स अगेन this paragraph we'll chant together yes
saya esho antara hridaya akashah tasmin nayam purusho manomayah amruto hiranmayah antarena taluke ya eshastana iva valambate sendrayoni यत्रासौ के शान्तो विवर्तते व्यपोह्यशीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणे आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्म सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीन योग्योपास्व
आई थिंक दैट वाज गुड Now we'll wind up chanting the Kshama Prarthana Mantra together.
Yadakshara padabhrashtam matra henantu yadbhavet tatsarvam kshamyatam deva narayana namostute visarga bindu matrani padapadaksharani cha nyunani chati riktani kshamasvasa ishvara अपराध सहस्राणि क्रियन्ते हर्निषन्मय दासोऽयमिति मामत्वा क्षमस्व सा ईश्वर अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष साईश्वर हरिः ओम् तत्सत् श्रीसाईश्वरार्पणमस्तु.
With this, we come to an end to this week's Vedam Tutor. Now I hand over the mic to Brother Bishu to continue with the Radio Sai Bhajan Classroom. Over to Brother Bishu. Sai Ram and happy listening.